श्लोकेन प्रारम्भं कुर्मः. गुरुरेव गतिर्गुरुमेव भजे, गुरुणैव सहास्मि नमो गुरवे. न गुरोः परमं शिशुरस्मि गुरोः, मतिरस्ति गुरौ मम पाहि गुरो. गुरुरेव गतिः गुरुमेव भजे, गुरुणैव सहास्मि नमो गुरवे. न गुरोः परमं शिशुरस्मि गुरोः, मतिरस्ति गुरौ मम पाहि गुरो. पार्थाय प्रतिबोधितां भगवता नारायणेन स्वयं व्यासेन ग्रथितां पुराणमुनिना मध्ये महाभारतम् अद्वैतामृतवर्षिणीं भगवतीं अष्टादशाध्यायिनीम् अम्बत्वामनुसन्दधामि भगवद्गीते भवद्वेषिणीं. नमोस्ते व्यासविशालबुद्धे फुल्लारविन्दायतपत्रनेत्र, येन त्वया भारततैलपूर्णः प्रज्वालितो ज्ञानमयः प्रदीपः. वसुदेवसुतं देवं कंसचाणूरमर्दनं देवकी परमानन्दं कृष्णं वन्दे जगद्गुरुं. मूकं करोति वाचालं पङ्गुं लङ्घयते गिरिं, यत्कृपातमहं वन्दे परमानन्दमाधवम्. श्रीहरये नमः, श्रीहरये नमः. राम राम राम. तत्र गतकक्ष्यासु अस्माभिः दृष्टमस्ति सनातनधर्मस्य आधारस्तम्भाः चत्वारो वेदाः. तत्रापि यदि वयं पश्यामश्चेत् तत्र प्रतिवेदे अपि संहिता, ब्राह्मणम्, आरण्यकम्, उपनिषत् इति चत्वारो भागाः सन्ति. तत्र वेदान्तभागः यदस्ति यदि वयं पश्यामश्चेत्, वेदान्तः इति यदि वयं पश्यामश्चेत्, तत्र प्रमुखतया प्रस्थानत्रयं वर्तते. उपनिषत्, ब्रह्मसूत्रं, श्रीमद्भगवद्गीता इति. उपनिषत् वेदस्य अन्तिमः भागः. ब्रह्मसूत्रं तावत् सूत्ररूपेण कथितमस्ति, परं श्रीमद्भगवद्गीता सरलसंवादरूपेण वर्तते, यत्र वेदसारम् उपनिषत्सारं सर्वम् अतीव सरलतया दत्तमस्ति. एवं गीताध्ययनेन अस्माभिः श्रुतिसारं, वेदान्तसारञ्च अतीव सम्यक् ज्ञातुं शक्यते इति उक्त्वा अद्यतनकक्ष्यां प्रारम्भं कुर्मः. पूर्वम् अस्माभिः दृष्टमस्ति एकविंशतिश्लोके, तत्र अर्जुनः पाण्डवः हृषीकेशं प्रति वदति, हे अच्युत, उभयोः सेनयोः मध्ये मम रथं किञ्चित् स्थापयतु इति सः अच्युतं प्रार्थयति. तत्र अच्युत इति पदस्य बहूनि अर्थानि अस्माभिः तत्र दृष्टमस्ति. अच्युतं यस्य च्युतिः कदापि न भवति, यः कदापि च्युतिः न प्राप्नोति, वन् हू नेवर् फाल्स् डौन्, वन् हू नेवर् गिव्स् अप्, वन् हू नेवर् लीव्स् अस् इन् ट्रबल्स्. एवं तत्र अर्थबाहुल्यं वर्तते अच्युत इति पदस्य. Recently, I also saw in one of the advertisement kind of a story, which was put in a poster, which most of us would have also seen. The story is titled as Footprints of Sand, wherein a devotee sees that there are two footprints on the sand, which is always, which is being there for some distance, and then he asks God, what is this, what are these? So God tells him, these are the times when we were so happy and I and you, we always walked together. After some time, he sees there is only one footprint which is there, and that is when devotee suddenly thinks, God, what are these? He says, these are the most difficult moments of your life. So he suddenly tells, God, see, in my most difficult moments you left me alone and you are not there. There is only one footprint which I can see. That is when God tells the devotee, O devotee, during the most difficult times, the one footprint which you see is actually my footstep, wherein I am carrying you on my shoulders and walking there, is what he says. So this word, this story immediately reminded us the word Achyuta, wherein God never forsakes us and never leaves us in trouble. During the troubled times, he takes us on his shoulders and he carries us very, very safely. With this kind of Achyuta Bhava on Achyuta, let us see the further parts of the chapters also. Yadi agre pashyamaschete tatra shloka number 22, we saw that saha vadati, shloka number 22 and 23, if we see, arjunaha krishnam prati vadati kim vadati tatra me ratham stapaya. In shloka 22, he tells the timing till when the ratha should be kept. Yavat aham asmin yuddhe sarvan yodharan pashyami avasthitan yodhukaman yete yuddhe yeye yodhukamaha santi yavat aham pashyami tavat sthapaya. So that is a timing part. Yavat aham sarvan pashyami tavat bhavan ratham sthapayatu iti vadati. So he tells about the timing in shloka number 22. In shloka number 23, we saw that kimartham sthapaniyam, why should I also keep the chariot if it is asked? We see the reasoning. Shloka number 23 gives us the reason. Durbuddhehe dhartarashtrasya yuddhe keke priyachikirshavaha iti drashtukamaha aham iti vadati saha. I am interested to see that who are all assembled who want to support this durbuddhi duryodhana. Yeye santi tan aham drashtum ichhami iti shloka number 23 madhye asmabhi drashtamasti. Tada anantaram, we stopped here. We have to start with shloka number 24. Ekavaram shlokam vadamaha purnataya vadami. We just told the shloka in the previous class. We will again just tell the shloka once and start from here. Sajjaya uvacha eva mukto hrishikesho gudakeshena bharata senayor ubhayor madhye sthapayitvarathottamam bhishma drona pramukhatah sarveshancha mahikshitam uvacha partha pashyitan samavetan kuruniti. Atra padachedah pashyamah. Shloka number 24 and 25. Sapta Chattvaram Shat Madhye Evam Uktaha Hrishikeshaha Gudakeshena Bharata Senayoho Ubhayoho Madhye Sthapayitva Rathottamam Bhishma Drona Pramukhataha Sarveshancha Mahikshitam Uvacha Partha Pashya Etan Samavetan Kurun Iti. Evam padachedah vartate tatra kartra karma kriya. There are interlinked sentences within this, so we can carefully try to identify the kartra karma kriya. There are actually two sentences which are interlinked. One person tells the other, that the other person tells it to that. So there are, so kindly identify the kartra karma kriya. Uktaha naiva bhavati, uktaha bhavatu tatra uvacha samyagasti, uvacha samyagasti, kaha uvacha गुडाकेशेन उक्तः भवतु एकम्। अनन्तरं कः उवाच? वी विल् सी वेर् गुडाकेशेन उक्तः फिट्स्, वी विल् सी दट्। ऋषिकेशः उवाच भवतु पश्य वर्ब ओके राइट पश्य इज आल्सो ओके पश्य इज वन ऑफ द वर्ब इन द सेंटेंस विच कृष्णा टेल्स अर्जुन पश्य इज करेक्ट वन सेंटेंस इज पश्य करेक्ट For Pashya, what is the Kartrupadam and Karmapadam? Vadatu, ate antima vakye vartate. Etan karma, tarhi Pashya asti, madhyam purusha asti, Kartrupadam ativa saralam. तत्र श्लोके नास्ति परम् अस्माभिः योजनीयम् हे पार्थ भवति तद् सम्बोधनं त्वं पश्य भवतु हा त्वं पश्य इति स्वीकर्तुं शक्यते सो द लास्ट् लैन् इस् क्लियर् फार् अस् हे पार्थ त्वं एतान् समवेतान् कुरून् पश्य दट् इस् द लास्ट् लैन् One line is fine. एतद् वाक्यं कः कं प्रति वदति कृष्णः अर्जुनं प्रति वदति हे पार्थ एतान् समवेतान् कुरून् पश्य इति वाक्यं तावत् कृष्णः अर्जुनं प्रति वदति हे पार्थ इति अस्ति स एवं कृष्णः अर्जुनं प्रति वदति पूर्णश्लोकं कः कं प्रति वदति उपरि एव अस्ति किल पूर्णश्लोकं श्लोकद्वयमपि कः कं प्रति वदति सञ्जयः धृतराष्ट्रस्य समीपे वदति समीचीनम् एवं सञ्जयः धृतराष्ट्रस्य समीपे वदति तर्हि तत्र तस्मिन् पर्याये यदि वयं पश्यामश्चेत् इन् दट् काण्टेक्स्ट् वाट् इस् द नौ इन् द काण्टेक्स्ट् आफ् सञ्जय टेल्लिङ्ग् धृतराष्ट्र वाट् इस् द सेण्टेन्स् सरलवाक्यं किं भवति सञ्जय धृतराष्ट्रस्य समीपे वदति किल तद् वाक्यं किं भवति हे भारत एवं गुडाकेशेन उक्तः तावत्पर्यन्तं सम्यगस्ति हे भारत एवं गुडाकेशेन उक्तः ऋषिकेशः उभयोः सेनयोः मध्ये रथं स्थापयित्वा एवम् उवाच इति आगच्छति एवम् उवाच किम् उवाच डाश् उवाच हे पार्थ एतान् समवेतान् कुरून् पश्य इति उवाच सम्यगस्ति सो द मेन् सेण्टेन्स् विच् इस् बीङ्ग् टोल्ड् बै सञ्जय थ्रु धृतराष्ट्र वुड् बी हे भारत गुडाकेशेन उक्तः टोल्ड् बै गुडाकेश उक्तः विल् बी मोर् कृदन्त देन् द क्रियापद हियर् गुडाकेशेन उक्तः ऋषिकेशः किं कृतवान् उभयोः सेनयोः मध्ये तत्र भीष्मद्रोणादीनां सर्वेषां समीक्षितां मध्ये रथोत्तमं स्थापयित्वा एवम् उवाच एतद्वाक्यं सः उक्तवान् इति उवाच दिस् इस् देर् इस् अन् इण्टर्लिङ्क्ड् सेण्टेन्स् विच् इस् वै वि शुड् जस्ट् टेक् केर् आफ् दट् पूर्ण अन्वयवाक्ये what Sanjaya tells to Dhritarashtra, within that we have what Krishna tells to Arjuna. Therefore, tatra kriyapada dvayam bhavishyati. He Bharata, he Bharata, he Dhritarashtra, evam gudakeshena uktaha hrishikeshaha. What happened? Arjuna told Krishna. So, evam, after having been told by Arjuna to Krishna, gudakeshena uktaha hrishikeshaha kim kritavan sa, senayoho ubayoho madhye, bhishmadrona pramukhataha. भीष्मद्रोणादीनां प्रमुखे वर्तमाने सति तत्र प्रमुखे वर्तमाने सैन्ये सह सर्वेषां महीक्षितां च सम्मुखे इन फ्रंट ऑफ ऑल द किंग्स लेड बाय भीष्म एंड द्रोण तयोः मध्ये तत्र रथं स्थापयित्वा ही कीप्स द चैरियट एंड हैविंग केट द चैरियट रथं स्थापयित्वा ऋषिकेशः किं कृतवान् सः एतद् वाक्यं उवाच वाक्यम उक्तवान इति संजयः धृतराष्ट्रं प्रति उवाच हे पार्थ एतान् समवेतान् कुरुन् पश्य देयर एंड्स द पार्थ एतान् समवेतान् कुरुन् पश्य दीस फाइव वर्ड्स आर द सेंटेंसेस टोल्ड बाय कृष्णा टू अर्जुन एज टोल्ड बाय संजय टू धृतराष्ट्र होप इट इज नॉट कंफ्यूजिंग इति उवाच पदपदार्थं पश्यामः हे धृतराष्ट्र एवं अर्जुनेन उक्तः कृष्णः द्वयोः सेनयोः मध्ये सर्वेषां भीष्मद्रोणादीनां अखिलानां राज्ञानां सम्मुखे राज्ञां सम्मुखे सः रथं स्थाप्य अर्जुनं प्रति वदति किं वदति हे अर्जुन इमान् समवेतान् कुरून् कुरु सैन्यान् सर्वे सर्वान् पश्य इति सः वदति इति संजयः धृतराष्ट्रं प्रति उवाच भवतु आंग्लभाषार्थः ओ भारत दस अर्जुन टोल्ड ऋषिकेश एंड बीइंग टोल्ड बाय अर्जुन ऋषिकेश प्लेस्ड द चैरियट इन बिटवीन बोथ द आर्मीज एंड इन फ्रंट ऑफ भीष्म एंड द्रोण And he then tells Arjuna, Krishna tells Arjuna, O Partha, these gathered Kurus who are there, kindly see them. Evam sahavadati. Kimartham sahavadati iti agre vyashatippani bhage pashyamaha. Padapadartham padaparichayaha pashyamaha padaparichayaha ativa saralaha vartate tatra kleshaha nasti. एकवारं पश्यामः भारत अकारान्तः पुल्लिङ्ग संबोधन प्रथमैकवचनं हे भारत इति अस्ति हे भारत इति सः आह्वानं करोति एवं अव्ययं गुडाकेशेन अकारान्तः पुल्लिङ्ग तृतीया एकवचनं गुडाकेशेन उक्तः संवादं कृतः कथितः कथितः अपि अकारान्तः पुल्लिङ्गः यतः उक्तः ऋषिकेशः गुडाकेशेन उक्तः ऋषिकेशः अकारान्तः पुल्लिङ्ग प्रथमैकवचनम् बोथ ऑफ देम आर इन प्रथम विभक्ति एकवचनम् उक्तः ऋषिकेशः कनेक्टेड गुडाकेशेन ऋषिकेशः उक्तः कर्मणि प्रयोगे वर्तते एवं गुडाकेशेन ऋषिकेशः उक्तः कर्तरि मध्ये कथं भवति इफ यू डू अ प्रयोगा चेंज व्हाट विल इट बिकम गुडाकेशेन ऋषिकेशः उक्तः कर्मणि प्रयोगे अस्ति यदि कर्तरि प्रयोगे कुर्मश्चेत् किं भवति वाक्यं सरलमस्ति अतः एवमेव पृच्छामि इफ वी चेंज इट फ्रॉम पैसिव वॉइस टू एक्टिव वॉइस गुडाकेशः अवदत् नैव भवति उक्तः अस्ति किल गुडाकेशः इज करेक्ट First word, Kartrupadam changed from Tritiya to Prathama, correct. Karmapadam, we have to change from Prathama to Dvitiya. That has to be changed. Gudakeshaha, Hrishikesham. Since Uktaha is in Karmani, Taprathya, we have to change it to Kartari ktavat pratyaya. Therefore, it would become gudakeshah hrishikesham uktavan. Samichinam, samichinam. Very good, correct. You got it right. गुडाकेशः ऋषिकेशं उक्तवान् आगच्छति सम्यक् तर्हि एतत् कर्मणि प्रयोगे वर्तते सेनयोः उभयोः मध्ये सेनयोः षष्टिद्विवचन उभयोः षष्टिद्विवचन मध्ये सप्तमी एकवचनम् तत्र भीष्मद्रोणप्रमुखतः भीष्मद्रोणप्रमुखतः तान् भीष्मद्रोणादीन् तत्र प्रमुखे स्थापयित्वा दट् इस् हाविङ्ग् केप्ट् देम् इन् फ्रण्ट् आफ् द हाविङ्ग् द सैन्य विच् इस् बीङ्ग् लेड् प्रैमरिली एण्ड् द आर्मी फार्मेशन् विच् इस् प्रैमरिली लेड् बै भीष्म एण्ड् द्रोण आल् दिस् भीष्मद्रोणप्रमुखतः इति एवं स्वीकुर्मश्चेत् प्रमुखतः इट् विल् बिकम् अ अव्यय भीष्मद्रोण प्रमुखतः सो एस् बीङ्ग् लेड् इन् फ्रण्ट् आफ् बीङ्ग् लेड् बै कीपिङ्ग् इन् फ्रण्ट् आफ् भीष्म एण्ड् द्रोण तत्र प्रमुखतः इति प्रयोगेन द वर्ड् बिकम्स् पदं बिकम्स् एन् अव्ययम् सर्वेषां षष्टि बहुवचन अतीव सरलमस्ति सर्वशब्दः सर्वेषां षष्टिबहुवचन महीक्षितां महीक्षितां महीक्षित् शब्दः तकारान्तः पुल्लिङ्गः षष्टि बहुवचनागेन् सर्वेषां महीक्षितां सम्मुखे सम्मुखे इति शब्दः तत्र हिडन् अस्ति तत् वी हेव् टु टेक् दट् फार् द मीनिङ्ग् सर्वेषां महीक्षितां सम्मुखे इन् फ्रण्ट् आफ् आल् द रूलर्स् आफ् द अर्थ् महीक्षितां मही अर्थ् ईक्षितां तत्र ये राजानः सन्ति ते महीक्षिताः महीक्षितां सम्मुखे सो महीक्षित् महीक्षितौ महीक्षिताः सो वि गेट् तकारान्तः पुल्लिङ्ग षष्टि बहुवचनं च अव्ययम् रथोत्तमं स्थापयित्वा रथं स्थापयित्वा रथं संस्थाप्य रथम् अवस्थाप्य एवं रथं रथोत्तमं द्वितीयाविभक्ति एकवचनं स्थापयित्वा स्थापयित्वा स्थाप निच्त्वा स्थापयित्वा भवति कृदन्तभागे पुनः पश्यामः त्वान्तव्ययम् अनन्तरं हे पार्थ पुनः सम्बोधनप्रथमैकवचनम् एतान् समवेतान् कुरून् पश्य एतान् समवेतान् कुरून् द्वितीयाभक्ति बहुवचनम् आल् कनेक्टेड् वर्ड्स् एतत् शब्दः समवेतशब्दः कुरुशब्दः द्वितीयाभक्ति बहुवचनं पश्य what is the dhatu we have seen it before pashya it would be drishir prekshane iti dhatuh yadi vayam pashyamaschet pashya tvam pashya pashyatu pashyatat pashyatam pashyantu पश्य पश्यतात् पश्यतं पश्यत पश्यानि पश्याव पश्याम तत्र लिट् प्रथम मध्यमपुरुष एकवचनम् इति लिखितमस्ति तत् करेक्ट् मध्यम लोट् देर् इस् अ प्रिण्टिङ्ग् मिस्टेक् इट् हेस् टु बि चेञ्ज्ड् पश्य इस् दृशिर् प्रेक्षणे लोट् मध्यमपुरुष एकवचनं पश्य पश्यतात् पश्यतं पश्यत इट् शुड् बि लोट् लकारः इति अव्ययम् उवाच उवाच यदि वयं पश्यामश्चेत् उवाच विल् बि उवाच लिट्लकारः प्रथमपुरुष एकवचनं हौ विल् द फार्म्स् बि उवाच द बेसिक् धातु इस् वि नो वि हव् सीन् दिस् बिफोर् ब्रूञ्च् व्यक्तायां वाचि इट् इस् हियर् इन् परस्मैपदी परस्मैपदि लिट् प्रथमपुरुष एकवचन उवाच ऊचतुः ऊचुः उवचित उवक्थ ऊचतुः ऊच उवाच उवच ऊचिव ऊचिम दट् विल् बी द फार्म्स् लिट्लकार फार्म्स् फार् उवाच एवं सञ्जयः धृतराष्ट्रं प्रति उवाच सञ्जयः धृतराष्ट्रं प्रति उवाच भवतु अग्रे व्याकरण भागम अर्थम पश्यामः हे भारत एवं गुडाकेशेन उक्तः ऋषिकेशः उभयोः सेनयोः मध्ये भीष्मद्रोण प्रमुखतः सर्वेषां च राज्ञां प्रमुखतः रथोत्तमं स्थापयित्वा हे पार्थ एतान् समवेतान् कुरुन् पश्य इति उवाच. संजय टेल्स ओ भारत हैविंग बीइंग रिक्वेस्टेड बाय अर्जुन ऋषिकेश ड्रेव्स द ग्रैंडेस्ट रथोत्तमम ग्रैंडेस्ट ऑफ द चैरियट्स टू प्लेस्ड बिटवीन द टू सैन्यास फेसिंग भीष्म एंड द्रोण ही कीप्स द चैरियट एंड टेल्स ओ पार्थ प्लीज सी दैट ऑल द कुरुस हैव जॉइंड टुगेदर एंड दे हैव गैदर्ड टुगेदर. व्याकरण भागम पश्यामः एवमुक्तो ऋषिकेशः we have seen similar sandhis before so it shouldn't be a problem. Eva muktah is visarga sandhi sakaradesha bhavati nantaram refatvena parinamate nantaram ukaratvena parinamate ukarah anantaram guna rupeda parinamate gunadeshah bhutva tatra eva mukto hrishikeshah bhavati. Visarga becomes sa ra and then finally becomes u, then a plus u becomes o, and evamukto hrishikeshah hrishikesho gudakeshena, both are similar ones. Agre gachha ha senayoho ubhayoho ubhayoho madhye senayor ubhayor madhye ubhayatrapi tatra refa deshah bhavati sarvesham cha. This we saw previously, similar things. Sarvesham plus cha सर्वेषां प्लस च सर्वेषां च द अनुस्वार द मा विद द स्ट्रोक गेट्स रिप्लेस्ड एज अनुस्वार. तत्र पदं नास्ति, तत्र पदस्यैव लोपः अस्ति. सर्वेषां प्लस च सर्वेषां च विल बी द फॉर्म विच इज देयर इन द श्लोक इटसेल्फ. सर्वेषां च अनुस्वार संधि. एवं अग्रे पश्यामः, तत्र समास भागे पश्यामश्चेत् गुडाकेशः गुडाकेशः गुडाका इति पदम्. गुडाका इत्युक्ते निद्रा इति अर्थः. गुडाका एवं यः गुडाकां गुडाकोपरि जयं कृतवान् सः गुडाकेशः. गुडाकायाः ईशः गुडाकां जितवान् यः सः गुडाकायाः ईशः तेन सः गुडाकेशः भवति. गुडाका मीन्स् निद्रा, ईशः मीन्स् लॉर्ड. गुडाकायाः ईशः तेन सः गुडाकेशः इति भवति. सो हियर वी आर नॉट टॉकिंग अबाउट गुडाका निद्रा और लॉर्ड, वी आर टॉकिंग अबाउट द पर्सन अबाउट द किंग हु आर द अर्जुन हु हैज डिफीटेड एंड हु हैज वन ओवर स्लीप. एवं गुडाकायाः ईशः तेन गुडाकेशः इति सः भवति. एवं बहुव्रीहिः केवलं षष्टितत्पुरुषोऽपि वक्तुं शक्यते गुडाकायाः ईशः इत्यपि वक्तुं शक्यते गुडाकायाः ईशः गुडाकेशः इत्यपि. परं बहुव्रीहिः वुड् बी मोर् ऐप्ट्. ऋषिकेशः वी ऑलरेडी सीन. ऋषिकाः इन्द्रियाण्याहुः. ऋषिका मीन्स् सेन्सस्. तेषामीशः ऋषिकेशः. एवम् ओन्ली अ गुडाकेश कैन हैव अ ऋषिकेश एज अ फ्रेंड गाइड सोल मेट और एज अ चैरियटर. दिस इज व्हाट इट सेज. सो अ जितेन्द्रिया ओनली कैन हैव कैन गो टुवर्ड्स द God. So all these words always keep us telling what are the qualities which we should be able to achieve in our life. Gudakeshah, Hrishikeshah, evam, these are the godly qualities. By listening to these words, like how we saw in the starting of the class, the word Achyuta itself always tells us that we should also never promise anything and let everything break any promise. We should not leave any chuti in ourselves. We should also not fall down in our lives. Evameva Bhagavan api achyutah vartate. If we live like that, then he will be an achyuta for us. Thus all these words The Sagunopasana, the attributes which we give to God are the attributes which we should try to achieve in our life. Asmabhi jivane yete gunaha tatra anvayam kartavyaha, anugunam kartavyaha, follow kartavyaha. Bhavatu. Bhishma drona pramukataha, bhishmascha dronascha bhishmadrono. Sadharana dvandva samasaha. Tayoho pramukham yadasti tat bhishmadrona pramukham. Tasmin bhishmadrona tasya vaityapi svikartum shakyate. Bhishmadrona pramukhataha tataha swarthe tashil pratyaha bhavati. Tataha, that is swarthe tashil. When you have to tell something which belongs to something, you can use tashil pratyaha. So evam bhishmadrona pramukhataha, it will come. Evam pashyamaschet agre tashil pratyah tasihi pratyah, also you can take that. Evam rathottamam samasam saralamasti ratheshu uttamam, best amongst the chariots ratheshu uttamam asti, ratheshu uttamah rathottamah tam rathottamam saptami tatpurusha samasah. Agre pashyamaschet uktah, like we said earlier, uktah will not classify as a kriyapadam, it will be vachidatuhu and ktapratyaha uktaha bhavati. Uktaha bhavati vachidatuhu. Sthapayati, sthapayitva iti adasti, sthapayati sthadatoho nich natu swarthe atra prerenarthe. Sthapayitva prerenarthe nich svikartavyam natu swarthe. Tatra churadigane pashyamaschet swarthe agachati, atra stha nich prerenarthe plus ktva pratyaha, we get sthapayitva. Anantaram samavetan asmabhi purnamev drishtamasti, samavetan, if we can remember that, samavetan, do we remember samavetan? Very initial times, probably in the first shloka itself, we did samavetan dash samavetaha, we have already seen that dash plus dash plus dash plus kta upasarga dvaya vartate, sam plus av plus in plus kta pratyasya upayogaha bhavati. Sam av etan samavetan evam bhavati, sam plus av plus in plus kta pratyaha samavetan. We have already seen that during the one of the first shlokas itself, we saw that. Evam taddhitantaha yadi pashyamaschet bharata, he bharata, bharatah nasti bharata, bharata bharatasya gotrapatyam puman bharatah, atra apatyarthe upayogah kritamasti bharata ityasya visheshartham agre pashyamah. Bharata bharatasya gotrapatyam pumane ye tasmin gotre jatah, bharata gotre jatah te bharatah bhavanti. Bharata bharatasya gotrapatyam pumam apatyarthake, apatyarthe anupratyah bhavati. Mahikshitam, mahikshitam, again we have mahi plus kshit, kshit bhumi plus kvip pratyasya uprayogah bhavati tatra kartari madhye, tesham mahikshitam iti bhavati. Partha, again one of the most popular usages, prathayaha apatyam puman parthah bhavati tat sambuddhau he partha iti bhavati. Param tatra prathayaha idam partha, parthaha iti svikartavyam, prathayaha ayam, prathayaha ayam parthaha iti svikartavyam iti ityapi tatra vayyakaranaha vadanti. Though anupratya is the popular version, prathayaha patyampuman, what is what we use for parthaha, the most appropriate usage will be prathayaha ayam parthaha iti bhavati. That will be one of the most appropriate usage as told by the Vayakaranas. Prathayaha ayam parthaha iti bhavati. अग्रे पश्यामः तत्र गुडाकेशः अस्माभिः दृष्टमस्ति तत्र विशेषटिप्पणी तावत् अतीव सरलमस्ति विच् वी केन् नो बै अवर् सेल्स् वेन् ही हेस् कान्कर्ड् स्लीप् एण्ड् ही इस् एवल् अलर्ट् obviously nobody the other people who do not who have not even conquered sleep what would they conquer the pandavas evam tatra hint dadati sanjaya evameva madhye madhye tatra phala phala phalasya ante tatra yuddhe kim bhavati iti phalameva madhye madhye vadati evameva gudakeshah ityadi shabdanam prayogena you have गुडाकेशः हृषीकेशः इत्यादि आत्मगुणभरिताः तत्र गुणभरिताः जनाः पाण्डवसैन्ये सन्ति एवमेव पाण्डवसैन्यं गुणभरितं धर्माधारितं चेत् तेषामेव तत्र युद्धे जयः भवति इति अतीव सरलतया येन केनापि तत्र चिन्तयितुं शक्यते एवं सः वदति पश्येतान् इति पदं यदस्ति दट् फार्म्स् द बीजं फार् द एण्टैर् श्रीमद्भगवद्गीता टिल् हियर् एतावत्पर्यन्तम् अस्माभिः दृष्टमस्ति कुत्रापि अर्जुनेन विषादः प्रकटनं न कृतः सः विषादम् एव न प्रकटितवान् सः युद्धे युद्धार्थं सन्नद्धः अस्ति सः गाण्डीवं स्वीकृतवान् सः शङ्खनादं कृतवान् सः उक्तवान् हे कृष्ण मध्ये स्थापयतु ये ये सन्ति तानहं पश्यामि तान् तैः सह युद्धं कर्तुं सन्नद्धोऽस्मि सर्वान् दर्शयतु इति सः वदति सः अतीव युद्धोत्साहेन भरितो वर्तते अर्जुनः तदा श्रीकृष्णः किं करोति तत्र सर्वान् भक्तजनान् आगामि सर्वान् सन्ततीन् अनुगृह्णातुं गीतोपदेशं कर्तुं सङ्कल्पं कृत्वा मनसि सः अर्जुनं प्रति वदति पश्य एतान् इट् इस् एस् इफ् अ हिप्नोटिकल् आक्ट् बै श्रीकृष्ण टु शो अर्जुन पश्य एतान् इट् इस् मोर् द हिप्नोटिसम् वेर् इन् अर्जुन गेट्स् इन् टु एन् एनाक्टेड् ड्रमाटिक् डिल्यूशन् एण्ड् दट् इस् वेन् ही गेट्स् इन् टु दट् एमोशनल् विषाद वेर् इन् विच् फार्म्स् द डिस्टर्बेन्स् टेम्पररि डिस्टर्बेन्स् इन् हिस् मैण्ड् This is like a student goes to the examination hall and he tells, he suddenly gets a realization, what will I do after having writing this exam? I will not live for a long time. Anyways, why should I write this exam? I don't want to write this exam and waste papers. Pages are very, very valuable these days. I don't want to waste pages. I don't want to waste ink. I don't want to waste the time of the invigilator. And if he goes out, it will be as childish. Similarly, even Arjuna is acting as childish only here. Some of the people, Westerners do ask, तत्र पाश्चात्याः वदन्ति गीतायां युद्धं कर्तुं तत्र प्रेरणा वर्तते इति बट् दे आर् नाट् सीङ्ग् द रैट् पर्स्पेक्टिव् दे आर् दे हियर् अर्जुन इस् बिहेविङ्ग् एस् चैल्डिश् एस् दट् चैल्ड् हू इस् रन्निङ्ग् अवे फ्रम् एन् एक्साम् जस्ट् बिकास् आफ् सम् फियर् आर् गिविङ्ग् सम् इल्लाजिकल् एण्ड् ट्रैङ्ग् टु अपियर् लाजिकल् रीसन्स् सो एव पश्येतान् forms the seed for the entire Srimad Bhagavad Gita. Previously we have seen that in various other forms, again in fourth chapter we will see, this Bhagavad Gita has been told by many times, it has been told many times by many people to many people. यदि वयं तत्र श्रीमद्भागवते पश्यामश्चेत् कपिलदेवहूतिसंवाद इफ् वी सी इस् अल्मोस्ट् The same shlokas which have been used in Bhagavad Gita have been used by Kapila Vasudevar again and again one more avatara of Vishnu. So we have seen that it has been used many times but then here again for the Kaliyugasya Prayogartham Ativa Vistara Arthavagamanartham Krishna Anugraham Kartum he puts this seed into the mind of Arjuna and says Pashyaitan. Again, Bharata, we saw that Bharatasya Gotrapatyam Puman is one of the meanings, but Bharata ಭಾ ಇತ್ಯುಕ್ತೆ ಭಾ ಪ್ರಕಾಶ ಭಾ ದೀಪ್ತೌ ಭಾ ಆಲ್ವೇಸ್ ಡಿನೋಟ್ಸ್ ಪ್ರಕಾಶ ಆ್ಯಂಡ್ ಯೇ ಯೇ ಜನಾಃ ಭಾಸಿರತಾಃ ಸಂತಿ ಹೂ ಆರ್ ಆಲ್ವೇಸ್ ಇಂಟ್ರೆಸ್ಟೆಡ್ ಇನ್ ಲೈಟ್ ಹೂ ಆರ್ ಆಲ್ವೇಸ್ ಇಂಟ್ರೆಸ್ಟೆಡ್ ಇನ್ ಬ್ರಿಲಿಯನ್ಸ್ ಹೂ ಆರ್ ಆಲ್ವೇಸ್ ಇಂಟ್ರೆಸ್ಟೆಡ್ ಇನ್ ಇನ್ ಇಂಟೆಲಿಜೆನ್ಸ್ ಆ್ಯಂಡ್ ಇನ್ ಪಾಸಿಟಿವ್ ಥಿಂಗ್ಸ್ ಯೇ ಭಾಸಿರತಾಃ ಸಂತಿ ತೇ ಸರ್ವೇ ಭಾರತಾಃ ತದರ್ಥಮೇವ ವಯಂ ಸರ್ವೇ ಭಾರತಾಃ ಇತಿ ಅಸ್ಮಾಕಂ ನಾಮ ವರ್ತತೆ ಏವಂ ತತ್ರ ವೇದೆ ಅಪಿ ಯದಿ ಆರಣ್ಯಕೇ ತೈತ್ರಿಯಾರಣ್ಯಕೇ ಪಶ್ಯಾಮಶ್ಚೇತ್ ಅಗ್ನಿಮಿಚ್ಛದ್ವಂ ಭಾರತಾಃ ಉತ್ತಿಷ್ಠತ ಮಾ ಸ್ವಪ್ತ ಇತ್ಯಪಿ ಉಕ್ತಮಸ್ತಿ ಏವಂ ವಿ ಹ್ಯಾವ್ ಟು ಅರೈಸ್ ಅವೇಕ್ ವಾಟ್ ವಿವೇಕಾನಂದ ಟೆಲ್ಸ್ ದಟ್ ಸೇಮ್ ವಾಕ್ಯ ಹ್ಯಾಸ್ ಬೀನ್ ಯೂಸ್ಡ್ ಇನ್ ದ ತೈತ್ತರೀಯ ಆರಣ್ಯಕ ಭಾರತ ಸೊ ಅಗ್ನಿಮಿಚ್ಛದ್ವಂ ಭಾರತಾಃ ಭಾಸಿರತಾಃ ಭಾರತಾಃ ದಟ್ ಈಸ್ ಎನ್ ಇಂಟ್ರೆಸ್ಟಿಂಗ್ ಕಮೆಂಟ್ರಿ ಫಾರ್ ಭಾರತ ಏವಂ ಅಸ್ಮಾಭಿಃ ಶ್ಲೋಕ 24-25 ದ್ರಷ್ಟುಮಸ್ತಿ ಅಗ್ರೆ 26 ಪಶ್ಯಾಮಃ ದಶನಿಮೇಷಾಃ ಸಂತಿ ಶೀಘ್ರಂ ಪಶ್ಯಾಮಃ ಏಕವಾರಂ ಶ್ಲೋಕಂ ವದಾಮಿ ಸರ್ವೇ ಅನುವದಂತು ತತ್ರಾಪಶ್ಯತ್ ಸ್ಥಿತಾನ್ ಪಾರ್ಥಃ ಪಿತೃನಥ ಪಿತಾಮಹಾನ್ ಆಚಾರ್ಯಾನ್ ಮಾತುಲಾನ್ ಭ್ರಾತೃನ್ ಪುತ್ರಾನ್ ಪೌತ್ರಾನ್ ಸಖೀಂಸ್ತಥಾ ಶ್ವಶುರಾನ್ ಸುಹೃದಶ್ಚೈವ ಸೇನಯೋರುಭಯೋರಪಿ ವೆರಿ ವೆರಿ ಸಿಂಪಲ್ ಶ್ಲೋಕ ಅಗೇನ್ ಗಿವ್ಸ್ ದ ಲಿಸ್ಟ್ ಆಫ್ ರಿಲೇಷನ್ಸ್ ವಿ ಶುಡ್ ನೋ ತಾವದೇವ ಶ್ಲೋಕ ಮಧ್ಯೆ ತತ್ರ ಸಂಬಂಧ ನಾಮ ವರ್ತತೆ ತಾವದೇವ ಏಕವಾರಂ ಶ್ಲೋಕಂ ಪೂರ್ಣತೆಯ ವದಂತು ಅನಂತರಂ ಪದಚ್ಛೇದಃ ಸ್ವಯಂ ಕುರ್ವಂತು ನಂತರಂ ತತ್ರ ಸ್ಕ್ರೀನ್ ಮಧ್ಯೆ ಪಶ್ಯತು ಅನಂತರಂ ಕರ್ತೃಕರ್ಮಕ್ರಿಯಾ ಶೀಘ್ರಂ ವದಂತು ತಾವದೇವ ಅಪಶ್ಯತ್ ಸಮ್ಯಗಸ್ತಿ ಕಃ ಅಪಶ್ಯತ್ ಪಾರ್ಥಃ ಅಪಶ್ಯತ್ ಕಾನ್ ಅಪಶ್ಯತ್ ಸರ್ವಾನ್ ಅಪಶ್ಯತ್ ಡ್ಯಾಶ್ 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 ಯೇ ಯೇ ಸಂತಿ ಪಾರ್ಥಃ ಅಪಶ್ಯತ್ ಸಮ್ಯಗಸ್ತಿ ಪಾರ್ಥಃ ನೌನ್ ಅಪಶ್ಯತ್ ವರ್ಬ್ ವೆರಿ ಗುಡ್ ವೆರಿ ಕರೆಕ್ಟ್ ಪಾರ್ಥಃ ಡ್ಯಾಶ್ 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 ಜನಾನ್ ಅಪಶ್ಯತ್ ತಾವದೇವ ಭವತು ಉತ್ತಮಂ ಉತ್ತಮಂ ಸಮ್ಯಗಸ್ತಿ ತತ್ರ ಏಕವಾರಂ ಪದಚ್ಛೇದಃ ಪಶ್ಯಾಮಃ ತತ್ರ ಅಪಶ್ಯತ್ ತತ್ರಾಪಶ್ಯತ್ ತತ್ರ ಅಪಶ್ಯತ್ ಸ್ಥಿತಾನ್ ಪಾರ್ಥಃ ಪಿತೃನ್ ಅಥ ಪಿತಾಮಹಾನ್ ಆಚಾರ್ಯಾನ್ ಮಾತುಲಾನ್ ಭ್ರಾತೃನ್ ಪುತ್ರಾನ್ ಪೌತ್ರಾನ್ ಸಖೀನ್ ತಥಾ ಶ್ವಶುರಾನ್ ಸುಹೃದಃ ಚ ಏವ ಸೇನಯೋಃ ಉಭಯೋಃ ಅಪಿ ತತ್ರ ಸರಳವಾಕ್ಯಂ ಅಸ್ಮಾಭಿ ಅನ್ವೇಷಿತಮಸ್ತಿ ಆಲ್ರೆಡಿ ಪಾರ್ಥಃ ಏತಾನ್ ಡ್ಯಾಶ್ ಜನಾನ್ ಸರ್ವಾನ್ ಅಪಶ್ಯತ್ ಕುತ್ರ ಅಪಶ್ಯತ್ ಸೇನಯೋಃ ಉಭಯೋಃ ಮಧ್ಯೆ ಅಪಶ್ಯತ್ ತಾವದೇವ ಪಶ್ಯಾಮಃ ಇದಾನೀಂ ಅಥ ಅನಂತರಂ ಪಾರ್ಥಃ ಅರ್ಜುನಃ ಪೃಥಾ ಪುತ್ರಃ ಪೃಥಾಯಾಃ ಅಯಂ ಏವಂ ಪಾರ್ಥಃ ತತ್ರ ಕುತ್ರ ತತ್ರ ತಸ್ಮಿನ್ ಪ್ರದೇಶೇ ಕಸ್ಮಿನ್ ಪ್ರದೇಶೇ ಕುರುಕ್ಷೇತ್ರೇ ಕೀದೃಶೇ ಕುರುಕ್ಷೇತ್ರೇ ಧರ್ಮಕ್ಷೇತ್ರಾಖ್ಯೇ ಕುರುಕ್ಷೇತ್ರೇ ತಸ್ಮಿನ್ ಪ್ರದೇಶೇ ಸ್ಥಿತಾನ್ ಸ್ಥಿತಾನ್ ತತ್ರ ವರ್ತಮಾನಾನ್ ಆಗತಾನ್ ಸಮವೇತಾನ್ ಯುದ್ಧಾರ್ಥಂ ಸನ್ನದ್ಧಾನ್ ಕಾನ್ ಕಾನ್ ಪಿತೃನ್ ಯೇ ಯೇ ಪಿತೃಜನಾಃ ಸಂತಿ ಯೇ ಯೇ ಪಿತರಃ ಸಂತಿ ವಾ ಪಿತೃತುಲ್ಯಾಃ ಸಂತಿ ತಾನ್ ಸರ್ವಾನ್ ಫಾದರ್ಸ್ ಆಂಡ್ ಫಾದರ್ ಈಕ್ವಲೆಂಟ್ಸ್ ಅಂಕಲ್ಸ್ ಸರ್ವಾನ್ ಅಪಿ ಪಿತಾಮಹಾನ್ ಅಗೇನ್ ಗ್ರ್ಯಾಂಡ್ ಫಾದರ್ ಆಂಡ್ ಗ್ರ್ಯಾಂಡ್ ಫಾದರ್ ಈಕ್ವಲೆಂಟ್ಸ್ ಯೇ ಯೇ ಪಿತುಃ ಪಿತಾ ಪಿತಾಮಹ ಪಿತುಃ ಪಿತೃನ್ ಯೇ ಯೇ ಸಂತಿ ತಾನ್ ಸರ್ವಾನ್ ಪಿತಾಮಹಾನ್ ಆಚಾರ್ಯಾನ್ ಮಾತುಲಾನ್ ಮಾತುಲಾಃ ಕೆ ಮಾತೃ ಸೋದರಾಃ ಮಾತುಲಾಃ ಮಾತೃ ಸಹೋದರಾನ್ ಭ್ರಾತೃನ್ ಪುತ್ರಾನ್ ಪೌತ್ರಾನ್ ಸಖೀನ್ ಶ್ವಶುರಾನ್ ಸುಹೃದಃ ಮಿತ್ರಾಣಿ ಚ ಸರ್ವಾನ್ ಉಭಯೋಃ ಸೇನಯೋಃ ಮಧ್ಯೆ ಅಪಶ್ಯತ್ ಸಿನ್ಸ್ ದ ಚಾರಿಯಟ್ ಇಸ್ ಪ್ಲೇಸ್ಡ್ ಇನ್ ಬಿಟ್ವೀನ್ ಬೋಧ್ ದ ಸೈನ್ಯಾಸ್ ಹೀ ಸೀಸ್ ಬೋಧ್ ದ ಸೈನ್ಯಾಸ್ ಆಂಡ್ ಸೀಸ್ ದ ಅಬೌ ಪೀಪಲ್ ಆಲ್ ಹಿಸ್ ರಿಲೇಟಿವ್ಸ್ ಹೀ ಸೀಸ್ ದಮ್ ಬಿಟ್ವೀನ್ ದ ಸೈನ್ಯಾಸ್ ಬಿಟ್ವೀನ್ ದ ಟೂ ಸೈನ್ಯಾಸ್ ತತಃ ಹೇ ಪಾರ್ಥ ತತಃ ಪಾರ್ಥಃ ಅರ್ಜುನಃ ಕಿಂ ಕರೋತಿ ತಸ್ಮಿನ್ ಕ್ಷೇತ್ರೇ ತಸ್ಮಿನ್ ಪ್ರದೇಶೇ कुरुक्षेत्रे उभयोः सेनयोः मध्ये स्थित्वा तत्र उभयोः सेनयोः मध्ये वर्तमानान् कान्कान् पितृन् पितृव्यान् पितृव्याः पितृसोदराः ये ये सन्ति पितृतुल्याः ये ये सन्ति fathers and father equivalents who are there, who have brought him up, who have taught him lot of things, and all the brothers of his father who are all there, cousins and other brothers, he sees them. Pitrin, pitamahan, then the second is pitamahaha. Ye pituh pitrin, for his father, who are all people who were equivalent to his father, again the uncles who are there, the pitruvyaha, those who are there, and ज्येष्ठ ब्राताः वाट् वि से आल् दीस् पीपल् द ग्राण्ड् फादर्स् देन् द गुरून् ये ये आचार्याः सन्ति ये ये तत्र पाठितवन्तः ये ये गुरवः सन्ति तान् सर्वान् पश्यति मातुलान् तत्र मातृसोदरान् पश्यति वि विल् सी फार् ईच् आफ् दीस् रिलेटिव्स् वि विल् सी द नेम्स् हू आर् देर् इन् द विशेष टिप्पणी भाग वि विल् सी हू आर् आल् आक्चुली स्टाण्डिङ्ग् देर् वि विल् ट्रै टु सी who represent each of these words. It is not a blind usage of all the relations. Specific people are standing there. If we place ourselves in between the both armies, how we can see? We will see that, and we will see who are all present there during that time. Putran, putran, putra tulyan, ye ye santi, people who would be as equal as his sons. For example, brother's sons will always be our sons only. Similarly, putra tulyan and putra pautran, ye putrasya putraha santi te pautraha, ye putriyaha putraha santi te dauhitriyaha bhavanti. Evam putra pautran sakhin, ये ये मित्राणि सन्ति सुहृदः सन्ति ये तत्र पूर्वे कृतोपकाराः आल् पीपल् हू आर् वेल् विशर्स् एवं शुशुरान् एवं भार्यायाः पितॄन् ये ये सन्ति तान् सर्वान् उभयोः सेनयोः मध्ये सः दृष्टवान् दीस् आर् द पीपल् ही सीस् शीघ्रं पदपरिचयं पश्यामः अथ अव्ययं पार्थः पुल्लिङ्गं प्रथमैकवचनं तत्र अव्ययम् अगेन् लोकेशन् वि हव् आलरेडि सीन् दिस् स्थितान् स्थितान् वर्तमानान् पितृन् पितृन् अगेन् ऋकारान्त पुल्लिङ्ग द्वितीयाभक्ति फ्रम् हियर् वि केन् सी आल् आर् द्वितीयाभक्ति बहुवचनं तावदेव मोस्ट् आफ् देम् पुल्लिङ्ग स्थितान् पितृन् पितामहान् आचार्यान् मातुलान् भ्रातॄन् जस्ट् भ्रातृशब्द ऋकारान्तः पुत्रान् पौत्रान् आल् दीस् पुल्लिङ्ग द्वितीयाबहुवचनं सखीशब्दः सखा सखायौ सखायः सखायं सखायौ सखीन् इत्यागच्छति इकारान्त पुल्लिङ्ग द्वितीयाभक्ति बहुवचनं शुशुरान् अगेन् पुल्लिङ्ग द्वितीयाभक्ति बहुवचनं सुहृद् शब्दः सुहृद् भवति पुल्लिङ्ग द्वितीयाभक्ति बहुवचनं सुहृदः सुहृत् सुहृदौ सुहृदः सुहृदं सुहृदौ सुहृदः सुहृदा आगच्छति एवं भवति एवं सुहृदः द्वितीयाभक्ति बहुवचनं च अव्ययम् उभयोः सेनयोः षष्टिभक्ति द्विवचनं तत्र उभयोः सेनयोः अपि अव्ययम् अपश्यत् यदि पश्यामश्चेत् दृशिर् प्रेक्षणे वि हव् आलरेडि सीन् अ सिमिलर् वन् ऐ थिङ्क् पश्य वीसा पश्य वास् दृशिर् प्रेक्षणे लोट्लकारः अपश्यत् वुड् बि लङ्लकारः प्रथमपुरुष एकवचनं परस्मैपदि अगेन् पश्य दृशिर् बिलाङ्ग्स् टु भ्वादिगणम् ओन्लि अपश्यत् अपश्यताम् अपश्यन् अपश्यः अपश्यतम् अपश्यत अपश्यम् अपश्याव अपश्याम एवं भवति अथ पार्थः तत्र स्थितान् पितॄन् पितामहान् आचार्यान् मातुलान् भ्रातॄन् पुत्रान् पौत्रान् सखीन् श्वशुरान् सुहृदः च उभयोः सेनयोः मध्ये अपश्यत् हि सीस् आल् हिस् रिलेटिव्स् फ्रेण्ड्स् टीचर्स् and other people, he sees them, well-wishers also. Tatra apashyate, saralamasti, a plus a dirga, savarna dirga, sakimstata, again, sakimstata, so if we see, sakin plus tata, this is called as sattva sandhi. We have not seen this till now. Again, if we see, sakin plus tata, we will get it as sattva sandhi. What we see, that is, at the end of the letter, if we have na, and after that, we have cha, cha, and sha, any of these, and then we also have these words which are there, then what will happen is, we will have the, like, if the anuswara might come in some of the places, like, for example, if we do tan plus cha, we will have tamscha. Etan plus chhatran, if we do, it will become etamschhatran. But if we have takara, tavarga, then what will happen is shakara will be there. For example, if we do patan plus tikate, it will be patamsh tikate. The shanmukasha, what is there, the murdhanya shakarasya prayogam bhavati. Param yada takarah bhavati, nakarat puram takarah bhavati chet, sattvadeshah bhavati. Evam balan plus tada, if we do, it will be balams tada. Similarly, sakin plus tatha, sakims tatha. Sattva sandhi is the sandhi which is there. Again, within the sandhi we have variants in that. Yadi sameha anantram labhyate chet ekavaram purna sandhi kurmaha. But for now, we will know that in front of nakara, if ta and tha comes, then we will have sakara desha. Therefore, tatra anuswaragamaha, rutvam anuswaragamaha, anantram sattvam bhavati. Evam, this is called as sattva sandhihi. Sakims tatha. Suhurdaha chaiva, suhurdas chaiva, we have seen visarga sandhi, sakara, sakara desha, nantaram shutva desha, chaiva vino, senayoho, bayoho, bayorapi, visarga refa, we have already seen that. The taddhita bhaga, if we see, parthaha, we have already seen, prithayaha ayam, parthaha, pitamahaha, we have already seen pitamahaha once. Do we remember pitamahaha? Can we remember that? What is already there? I can't ask questions. But pitamaha, again, tatra, pitamaha, the pratyaya is the damahach pratyaya. Pita ityarthe, pituf pita pitamaha, the pratyaya which is used for taddita will be damahach pratyaya. And again here, if we see for matulaha, matuhu bhrata matulaha, the dulaj pratyasya prayogaha kritamasti, matru bhrata. Bhrata ityarthe tulach pratyasya upayogaha evam matulaha. Pitamaha we saw damahach pratyaya, and for matulaha we are seeing dulach pratyasya upayogaha. Evam pashyamaha tatra vishesha tippanis, which we said, who are all the people who he saw? Yada tatra pitrun iti vadati bhurishravadayaha iti bhavati. Tatra pitrun, pitamaha ye santi, bhishma, somadatta, balhika. We saw that balhika was very closely related to shantanu. We saw that in the previous. So yete sarve, pitamaha tulyaha, pitrutulyaha, pitamaha tulyaha yete, bhishma, somadatta, somadatti also we saw that, and we saw balhika also, he was there. Yadi acharyan pashyamastet dronacharya kripacharya matulaha keke purujit kunti bhoja and shalya. We saw these people. Shalya would be madri's brother, and purujit and kunti bhoja will be kunti's brother. So purujit, kunti bhoja and shalya are the matulas brothers. Ye bratru nitya padamastikila tadartham ke yudhishthiradayah karnadayah ye santi te sarve bratrun bhavanti. Anantaram all the cousins also, if we see, Duryodhana and his brothers also will be bratratulyaha only. Again, putran, if we see, Abhimanyu is there, Prativindya is there. We have seen Prativindya previously already when we saw Draupadeyaha, the pancha, Draupadi's sons. Then Ghatotkacha is there, who is Bhima's son, Ghatotkacha. Lakshmana is also there. So these people are there. Then Lakshmana has a son already now. Again, they will be Pautran, grand nephews. And then Shushuran, when we say, again we have Drupada, Shaibya, and Evam Anye Yeye Santi, Suhrdaha, Well-Wishers, Kritopakaraha, Yeye Santi, Tan Sarvan Sahapashyati. So it is not purely just all the relatives have been mentioned here by Vyasa, but then specific people are standing in the respective positions, and all these people he sees, which is when we realize that even very simple, at any point of time, when we see elders, let us say there is some trouble or some difference of opinion, and when we see people who are there in that place are elders and friends and who have helped us in the past, who have actually brought us up at that time, we always become very very soft. We become very soft, and that is when which is again we see that by telling these things we realize what actually Arjuna went through. He goes through that if in a small difference of opinion, in a vagvada itself, when we become soft, when somebody has to kill his own uncle, relatives who have brought him up, we are easily able to understand the vishada or the moha which suddenly gets into his mind. It is easily understandable when we see all these relatives and we are trying to understand the position of Arjuna. Evam tatra shlokah asti agami adhyaye agami kakshayam vayam pashyamaha katham actually Arjuna's vishada starts from shloka 27. Shloka 27 will tell us the mood, how Arjuna's mood changes, and then what Arjuna starts talking to, or starts blabbering rather, to Krishna. And prajñāvādānśca bhāṣase, he thinks himself to be very very intelligent, and he starts talking. That is what Krishna tells when he really, the real start of the Bhagavad Gita starts from the shloka aśocyān anvaśocastvam prajñāvādānśca bhāṣase. For triggering that shloka from Krishna, what all Arjuna does, we will see in the following class. एवं अद्यतनस्य कक्षायाः अन्त्यं कुर्मः. तत्र अन्तिमश्लोकम् एकवारं तत्र श्लोकद्वयं वदामः. अद्य कृतश्लोकाः शीघ्रमुक्त्वा विरमामः. सञ्जय उवाच एवमुक्तो हृषीकेशो गुडाकेशेन भारत सेनयोरुभयोर्मध्ये स्थापयित्वा रथोत्तमं भीष्मद्रोणप्रमुखतः सर्वेषां च महीक्षिताम् उवाच पार्थ पश्येतान् समवेतान् कुरूनिति तत्रापश्यत् स्थितान् पार्थः पितृनथ पितामहान् आचार्यान् मातुलान् भ्रातॄन् पुत्रान् पौत्रान् सखींस्तथा श्वशुरान् सुहृदश्चैव सेनयोरुभयोरपि यत्र योगेश्वरः कृष्णो यत्र पार्थो धनुर्धरः तत्र श्रीर्विजयो भूतिर्ध्रुवा नीतिर्मतिर्मम गुरुरेव गतिः गुरुमेव भजे गुरुणैव सहास्मि नमो गुरवे न गुरोः परमं शिशुरस्मि गुरोर्मतिरस्ति गुरौ मम पाहि गुरो गुरुरेव गतिः गुरुमेव भजे गुरुणैव सहास्मि नमो गुरवे न गुरोः परमं शिशुरस्मि गुरोर्मतिरस्ति गुरौ मम पाहि गुरो. राम राम राम. आगामी कक्षा एकोनत्रिंशत् दिनांके 29th थर्सडे मॉर्निंग 6 o'clock वी विल हैव द सेम क्लास अगेन. आई हैव ऑलरेडी सेंड द नोट्स एंड इफ देर आर सम मोर एडिशनल नोट्स आर पॉसिबल वी विल सेंड दैट ऑल्सो. प्लीज प्रोवाइड योर फीडबैक और एनी क्वेश्चंस काइंडली मेल इट टू अस. यू ऑल नो अवर आईडी. Both the Sanskrit ID is there and our personal ID is also there. You can feel free to mail us or give any feedback at any point of time. Thank you. Dhanyavadaha. Ram Ram Ram. Shubham Bhavatu. Shreyamsi. Puyamsi Bhavantu.